अथ श्री सूक्तम् ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्मयी लक्ष्मी जातवेदो लक्ष्मीमनपगामिनी यस्यां हिरण्यविन्देयं गामश्वं पुरुषानहं अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनी स्मितां हिरण्यप्राकारमार्द्राय ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णान् तामिहोपह्वये श्रियम् चन्द्रां प्रभासा अलक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु यान्तरायाश्च बाह्या अलक्ष्मीः उपैतु मां देव सखक् कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे क्षुत्पिपासामलायि ज्येष्ठामलक्ष्मीं नाशया सर्वान्निर्णुदमे गृणात् गन्धद्वारान् दुराधर्षान् नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् मनसः काममाकूतिर् वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीश्रयताय यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियं वासय मे कुले मातरं पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्लीतवसमे गृहे निज देवी मातरं श्रियं वासय कुले आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयी लक्ष्मी जातवेदो मावः आर्द्रायः कारिणीयष्टिम् सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो मावः तामावः जातवेदो लक्ष्मीमनपगामिनी यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् यशुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पै च दशर्चै च श्रीकामः सततै जपे पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व पद्मानने पद्म ऊरु पद्माक्षि पद्मसंभवे तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनं मे जुषतां देवि सर्वकामांश्च देहि मे पुत्रपौत्रधनं धान्यं हत्स्यश्वाश्वतरीरथं प्रजानां भवसि माता आयुष्मन्तं करोतु मे धनमग्निर्धनौ वायुर्धनं सूर्यो वसुः धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना वैनते सोमं पिब सोमं पिबतु रुद्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनां सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभि भगवति हरिवल्लभे मनोगे त्रिभुवनभूतिकरि प्रसीदमयं विष्णुपत्नीं क्षमां देवी माधवी माधवप्रियाम् लक्ष्मीं प्रियसखीं भूमिं नमां यच्युतवल्लभां महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् श्रीदश्चिक्लीत इति विश्रुताः ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवतामताः ऋणरोगादिदारिद्र्य पापक्षुदपमृत्यवः भयशोकमनस्तापा नश्यन्तु मम सर्वदा। श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच् क्षोभमानं महीयते धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायु। इति ऋक्परिशिष्टोक्तं श्रीसूक्तं सम्पू